इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अब्रवीत् यत् भारतस्य एक्ट ईस्ट इत्येषा प्रतिवेशी प्रथम नीति आसियान देशीय संबंधान नूतनाम ऊर्जाम गतिम दिशाम च अयच्छत। तेन सबलम प्रतिपादितम यत् एकविंशे शताब्दी भारतस्य आसियान देशानाम च अस्ति। लाओ राजधान्याम वियंचने भारत आसियान शिखर सम्मेलने प्रधानमंत्री अवदत् भारतम आसियान देशाः च शांतिप्रिय राष्ट्राणि सन्ति, अपि च एतानि परस्परम् अखण्डतायाः संप्रभुतायाः च सम्मानं कुर्वन्ति। प्रधानमन्त्री अवोचत् यत् यदा विश्वे अनेकेषु भागेषु साम्प्रतम् आपीड मतभेदादिकं दृश्यते तदा भारतासियान देशेषु मित्रता सहयोग संवाद सहभागिताः अतितराम् महत्वपूर्णाः सन्ति। श्रीमोदी प्रावोचत् यत् विगतेषु दशवर्षेषु आसियान देशैः सह भारतस्य व्यापारः संवर्ध्य द्विगुणितः अर्थात् 13 कोटि डॉलर अधिकः संवृत्तः। एतदतिरिच्य अत्र सम्मेलने प्रधानमन्त्री विभिन्नैः आसियान नेतृभिः समम् अपि द्विपाक्षिक चर्चाम् अकरोत्। भारत लाओ पीडिया इत्येतयोः 6 सहमतिपत्राणां सन्धौ हस्ताक्षरं जातम्। भारत संयुक्त राष्ट्र विकास साहाय्य कोष माध्यमेन लाओ इत्यत्र पोषण सुरक्षायां परिष्काराय 1 मिलियन अमेरिका डॉलर इत्यस्य वित्तीय सहायता प्रदानार्थं निर्णयं स्वीकृतम्। अद्य देशे सर्वत्र विजयदशमी दशहरा उत्सवः आचर्यते। भगवतः श्रीरामस्य रावणोपरि विजयस्य स्मरणे अयम् उत्सवः आचर्यते। अस्मिन् दिने नवरात्रि दुर्गापूजायाः समापनम् अपि भवति। अत्रावसरे राष्ट्रपतिः द्रौपदी मुर्मू देशवासिभ्यः शुभकामनाः प्रदत्तवती। विदेशमन्त्रालयः एकस्मिन् वक्तव्ये अवदत् यत् नवदिल्ली निरन्तरं लेबनान स्थितिं निरीक्षमाणः अस्ति। ब्लूलाइन इत्यस्य पार्श्वे क्षीणतायाः सुरक्षास्थित्याः विषये च चिन्तितः अस्ति। मन्त्रालयः अवदत् यत् संयुक्तराष्ट्रसंघस्य परिसरस्य अखण्डतायाः सर्वैः आदरः कर्तव्यः। संयुक्तराष्ट्रसंघस्य शान्तिरक्षकाणां सुरक्षायै तेषाम् अधिकारस्य पवित्रतायै च समुचितानि उपायानि कर्तव्यानीति। तमिलनाडुराज्यस्य त्रिचीनगरस्य अन्ताराष्ट्रिय विमानपत्तनात् ह्यः संयुक्तारब अमीरात देशस्य सारजाह नगरं प्रति गच्छतो वायुयानस्य सफलम् आपत्कालीनावतरणं जातम्। उक्त विमानस्य हाइड्रोलिक प्रणाल्यां तकनीकी विफलतायाः परिज्ञानानन्तरं त्वरितं त्रिची विमानपत्तने एव विमानस्य सुरक्षितम् आकस्मिकम् अवतरणं कारितम्। विमानेऽस्मिन् 45.1 लाख यावत् जनाः आसन्। आकस्मिकावतरणात् पूर्वं विमानमिदं 2.5 घण्टापर्यन्तम् आकाशे एव उड्डीयमानम् आसीत्। आकस्मिकावतरणे त्रिची विमानपत्तने उच्च सजगता आसीत्। सर्वाण्यपि रक्षण संसाधनानि स्थापितानि आसन्। महिलानां 20-प्रतिविंशति विश्व चषक क्रिकेट प्रतिस्पर्धायां गतसायं दुबई नगरस्य दुबई अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे ऑस्ट्रेलिया दलं पाकिस्तान दलं 9-2 पराजितम्। प्रियाः श्रोतारः, संस्कृत जगता सम्बन्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 भविष्यति। कृपया शृण्वन्तु इति वार्ताः।